ब्राह्मी ब्रह्मसुतौ च तुम्बुरुजगत्प्राणात्मजोदतिलम् नन्दीशञ्च मतङ्गवेङ्कटमखि श्रीशार्ङ्गदेवान्मुदीतीर्थान् जयदेव दीक्षितवरस्यामान् मुदाच्यागराडायान् गानपरम्परानुगगुरून् वाग्येयकरान् भजे गानपरम्परानुगगुरून् वाग्येयकरान् भजे वाग्येयकरान् भजे सदाशिवसमारम्भाम् अस्मदाचार्यमध्यमाम् सदाशिवसमारम्भाम् त्यागराचार्यमध्यमाम् अस्मदाचार्यपर्यन्तम् वन्दे गुरुपरम्परा. ओं नमो ब्रह्मादिभ्यः नादविद्या संप्रदाय प्रवर्तकेभ्यः नमो वंशऋषिभ्यो नमो महद्भ्यो गुरुभ्यः तस्मत् श्री गुरुचरणारविन्दाभ्यां नमो नमः. संगीतम एका उत्तम विद्या. गीतम गानमिमे समे इति अमरकोशे प्रतिपादितम्. गीतस्य गानस्य च भेदो नास्ति. पूर्वकाले गीतम् इति व्यवहारः आसीत्. कथमिति चेत् किमर्थमिति चेत् मनसः आनन्दजनार्थं सङ्गीतम् एकं साधनं भवति. इदं बहिः प्रकटितं फलम्. एतदतिरिच्य प्रकृतेः रञ्जनं भवति. इदमेकं फलम्. एतदतिरिच्यापि आत्मनः शाश्वतानन्दसम्पादनार्थमपि सङ्गीतम् उपयुज्यते. एतत् महोत्तमं फलम्. चतुर्विधपुरुषार्थेषु मोक्षः उत्तमः. तत्र धर्मः आवश्यकः. सङ्गीतविषये कश्चन धर्मः वर्तते. मोक्षप्राप्तिपर्यन्तं सङ्गीतस्य उपयोगः यदा भवति तदा एतत् सङ्गीतं वेदसम्बद्धं भवेत्. अत एव सम् इति उपसर्गस्य योजनं कृतम्. सम् शास्त्रीयम् इति तदर्थः. शास्त्रीयं यद्गीतं तदस्माकं शाश्वतानन्दकारकं भवति. किमर्थं सङ्गीतस्य मोक्षसाधनत्वं वक्तव्यम् इत्युक्ते सङ्गीतस्य मूलमस्ति नादः. सः नादः प्रणवनिबद्धः. अर्थात् प्रणवरूप एव नादः. प्रणव एव नादः. प्रणवः शब्दात्मिका प्रकृतिः. शब्दात्मिका सुरुपनिर्दृशां निधानम् उद्गीधर्म्यपठवा पदपाठपताञ्च साम्राम् इति सप्तसत्याम् अभिवर्णितम्. शब्दस्वरूपमखिलं धत्ते सर्वस्य वल्लभा अर्थस्वरूपमखिलं दत्ते मुक्तेन्द्रशेखरः इति नारात्मिकः नारात्मकः प्रणवः परमात्मानं भक्ति अतः प्रणवः प्रकृतिस्वरूपः भवति प्रकृतेः किञ्चित् लक्षणं वर्तते परिणामरूपं लक्षणम् परिणामे विकृतिः अपरिणामे प्रकृतिः प्रणवः प्रणवरूपः यः नादः वर्तते सः प्रकृतिस्वरूपः सः प्रणवः विकृतिं प्राप्तः तेन स्वरत्रयम् अभूत् उदात्तः अनुदात्तः स्वरितः इति स्वरः त्रिविधः भवति एतत् स्वरत्रयं वेदनिबद्धमेव वर्तते स्वराणामपि अर्थः अर्थनिर्णयः अस्ति तेभ्यः स्वरेभ्यः सप्तस्वराः समुद्भूताः इति पाणिनीयशिक्षायां प्रतिपादितमस्ति उदात्ते निषादगान्धारौ अनुदात्त ऋषभदैवतो स्वरितप्रभवाह्येते षड्जमध्यमपञ्चमाः इति परिणामक्रमेण प्रणवात् स्वरत्रयं स्वरत्रयात् स्वरसप्तकम् इति परिणामक्रमः अस्ति स्वरसप्तकं नाम सप्तभ्यः स्वरेभ्यः सङ्गीतशास्त्रं सर्वमपि समुत्पन्नम् सङ्गीतञ्च प्रयोगरूपेण विज्ञानरूपेण च द्विधा वर्तते सङ्गीतस्य लक्षणं समग्रतया यत्र अभिवर्णितमस्ति तत् विज्ञानस्वरूपं सङ्गीतं भवति प्रयोगरूपं सङ्गीतं नाम लक्षणानुसारेण रागाणां स्वराणां तालबद्धतया यः प्रयोगः वर्तते तत् प्रयोगसङ्गीतं भवति इदानीं सप्तस्वराः त्रयोग्रामाः मूर्छनास्त्वेकविंशतिः ताना एकोनपञ्चाशत् विधिका विंशतिश्रुतिः इति लक्षणकारैः प्रतिपादितम् सङ्गीतस्य परिकराः एते अत्र प्राधान्यं वहतः श्रुतिलयम् श्रुतिः नादम् आधारीकृत्य प्रवर्तते श्रुतिम् आधारीकृत्य स्वराः प्रवर्तन्ते सर्वेषामपि नादः मूलभूतः तत्र एकविंशतिधा श्रुतिः भिन्ना भवति सा श्रुतिः स्वराणां सौन्दर्यं ददाति स्वराणां श्रवणसौन्दर्यं ददाति श्रुतयः सूक्ष्मभूताः भवन्ति स्वराः स्थूलतया श्रूयन्ते श्रुतिभेदेन स्वराणामपि भेदः समुत्पन्नः कथमिति चेत् पूर्वोक्तरीत्या प्रणवात् स्वरत्रयं स्वरत्रयात् स्वरसप्तकम् इति अस्माभिः ज्ञातम् अस्मात् स्वरसप्तकात् विकृत्य द्वादशस्वरस्थानानि सम्प्राप्तानि तदर्थस्तु एकैकस्य स्वरस्य नाम पञ्चमं पञ्चमस्वरं षड्जस्वरं विहाय अन्येषां स्वराणां यदा विकृतिः भवति तदा द्वादशस्वरस्थानानि लभ्यन्ते ऋषभस्य भेदद्वयं गान्धारस्य भेदद्वयं मध्यमस्य भेदद्वयम् एवं धैवतस्य भेदद्वयं विशालस्य भेदद्वयम् आहत्य द्वादशस्वरस्थानानि समुत्पन्नानि पञ्चमषड्जयोः पञ्चमषड्जाभ्यां स्वीकृत्य तत्र द्वादशस्वरैः एकसप्तति रागाः आविर्भूताः एकसप्ततिरागाः पुनः प्रकृतस्वराणामेव अन्यरूपेण विचार्यमाणे अर्थात् ऋषभस्वरः वर्तते ऋषभः कदाचित् गान्धारः अपि भवति द्वादशस्वराणां सङ्ग्रहः भवति विशिष्य स्थिरस्वराणां पुनः अन्यरूपेणापि विचारः वर्तते तदा तु तेभ्यः स्वरेभ्यः एकसप्तति रागाः आविर्भूताः भवन्ति ताळाः अपि दशधा विभक्ताः दशमार्गे ताळदशप्राणाः इति ताळस्यापि दशप्राणाः वर्तन्ते कालो मार्गः क्रियाङ्गानि ग्रहो जातिः कलालयः इति प्रस्तारणं चेति ताळप्राणा दशस्मृताः इति ताळस्य प्रभेदाः दशधा वर्तन्ते एवं श्रुतिम् आधारीकृत्य स्वराणां प्रभेदः लयम् आधारीकृत्य ताळानां प्रभेदः सङ्गीतशास्त्रस्य यथा अस्माकं चक्षुषि भवतः तथा सङ्गीतशास्त्रस्य चक्षुस्थानीयं भवतः स्वराणां निर्माणचातुर्येण सङ्गीतशास्त्रस्य विस्तृतिः समुत्पन्ना अर्थात् स्वराः यदा सप्त इति वयं चिन्तयामः तदा तत्र स्वराणां द्वित्राणां स्वराणां लोपात् अथवा अन्यस्य विकृतिस्वरस्य संयोगात् नो चेत् आरोहणम् अवरोहणम् इति तत्र स्वराणां गमनं भवति नाम मन्द्रं मध्यम तारभेदेन स्थायिः अभिवर्ण्यन्ते तत्र मन्द्रषड्जात् तारषड्जपर्यन्तम् आरोहणं तारषड्जात् मन्द्रषड्जपर्यन्तम् अवरोहणम् इति नियमः वर्तते आरोहण अवरोहणनियमे स्वराणां क्रमः अवश्यं एकसप्ततिरागेषु स्वराणां नियमः भवेत् क्रमशः नियमः अस्ति किन्तु तत्र यदि क्रमनियमं विसृज्य अन्यरूपेण राग स्वराणां प्रवेशः भवति तर्हि वक्ररागः इति भवति तदर्थस्तु सरिगमपदनि इति स्वराणाम् उच्चारणं भवति सरिगमपदनि सनिदपमगरेस अत्र तु स्वराणाम् अक्रमयोजने क्रमशः अस्थापने तत्र वक्ररागः सञ्जायते सः एकविधः एवं रीत्या स्वरलोपेन स्वरान्तरयोजनेन स्वराणाम् अक्रमोच्चारणेन च नाम क्रमं विहाय उच्चारणेन च जन्यरागाः इति व्यवस्था कृता एकसप्ततिरागेष्वपि जन्यरागव्यवस्था प्रतिरागमपि भवति अतः रागाः अनन्ताः इति अस्माकं सिद्धान्ते प्रतिपादितमस्ति ताळानामपि भेदः एवमेव पञ्चजातयः ताळानां भवन्ति जातिम् अनुसृत्य तत्र क्रियाः सूच्यन्ते तत्र लघुः ध्रुवं ध्रुतम् इति भेदेन तत्र ताळस्य स्वरूपं निर्णीयते एवञ्च जातिभेदेन सप्तताळाः प्रकीर्तिताः ध्रुवो मठ्योरूपकश्च जम्पस्त्रिपुटयेव च अटताळ एकताळयो च सप्तताळाः प्रकीर्तिताः इति ताळसप्तकम् अत्र निर्दिष्टमस्ति शास्त्रे सप्तभ्यः नाम सप्तसु ताळेषु विचारणे जातिभेदेन पुनः ताळाः अधिकतया परिगण्यन्ते. पञ्चपञ्च जातयः एकैकस्यापि ताळस्य योजने द्वात्रिंशत् परिमिताः ताळाः समुत्पद्यन्ते. एवं रूपेण ताळविभागः ताळेषु पुनः गतिभेदे पुनः इतोपि अष्टोत्तरशतं ताळाः तत्र समुद्भवन्ति. एवं रूपेण रागाणां ताळानाञ्च विचारणेन सङ्गीतशास्त्रस्य आविर्भावः अस्माकं ज्ञायते. इदानीं सङ्गीतं रागताळविवरणात्मकमेव यदि स्यात् तर्हि प्रयोजनविषये तस्य तत् कथम् उपयुज्यते इति विचारः भवति. केवलं ताळानां निर्दिष्टतया प्रयोगात् रागाणां निर्दिष्टतया प्रयोगात् एव सङ्गीतशास्त्रं विचार्य सङ्गीतस्य निर्दिष्टतया प्रयोगात् अस्माकं किं फलं सिद्ध्यति इत्युक्ते मनसः आनन्दः एव सिद्ध्यति. सः आनन्दः क्वचिदपि दीर्घकालं न भवति. आनन्दः दीर्घकालं यदि भवेत् तर्हि सः मोक्षः इति वक्तव्यं भवति. सङ्गीतस्य मोक्षप्रयोजनं वर्तते इति सिद्धान्तीक्रियते कैश्चित् महर्षिभिः. वस्तुतः गीतस्य श्रुतिरञ्जनं प्रयोजनतया वर्तते, किन्तु सङ्गीतस्य मोक्ष एव प्रयोजनतया वक्तव्यं भवति. अत एव सर्वं सङ्गीतं न भवति. गीतं भवेत् नाम सर्वमपि यत् चित्ताकर्षकतया श्रूयते, चित्ताकर्षणं करोति यद्यत् तत् गीतं भवतु नाम सङ्गीतं तन्न भवति. अत एव क्वचित् श्लोके पूर्वमहर्षीणाम् अभिप्रायं स्वीकृत्य मया एकत्र विवरणं कृतं. चित्ताकर्षकतासृत्या गानसामान्यलक्षणं चित्तशुद्धिकरं यत् तदन्यद्गानं विशोपमम् इति. अस्माकं मनसः उद्वेगकारकं सङ्गीतं वर्तते. लोके गीतं श्रूयते, उद्वेगं जनयति. तत्र महान्तः अपि उद्वेगम् अनुभवन्ति केनचन सङ्गीतेन. तत्र पाश्चात्यविधानेषु कानिचन कानिचन गीतानि वर्तन्ते. एवं जानपदगीतेषु कानिचन वर्तन्ते. एवं तेभ्यः अस्माकं मनसः उद्वेगः एव उत्साहः इति पामराः कथयन्ति. उत्साहः इति न, उद्वेगः इति वयं कथयामः. यः उत्साहः सः उद्वेगः न भवति, यः उद्वेगः सः उत्साहः न भवति. अस्माकं भावम् अनुसृत्य अत एव सङ्गीतस्य योगसम्पर्कः भवति. योगविषये तावत् मनस्थितिः येन येन साधनेन अभिवर्ण्यते तत्तत् साधनम् अस्माभिः आदरणीयं भवति. इदानीम् आहारविषयं, मनसः स्थितौ आहारः अस्माकं साधनतया उपयुज्यते. आहारस्वीकरणात् अस्माकं मनसि स्थितिसम्पादनं वक्तव्यं भवेत्. अत्र यदि आहारः तामसाहारः स्वीक्रियते अस्माभिः तर्हि सङ्गीतविषये अपि तामससङ्गीतमेव मनः अन्विष्यति. अत एव शुद्धान्तरङ्गतया सङ्गीतश्रवणं कर्तव्यम् इति. अत्र सङ्गीतशास्त्रत्वेन बहवः लाक्षणिकाः स्युः नाम तथापि गानरूपेण सङ्गीतलक्षणं समग्रतया प्रतिपादितवन्तः त्यागराजयोगिनः. तेषां कृतिषु सङ्गीतशास्त्रस्य विवरणं, गायकस्य लक्षणानि एवं तत्तद्रीत्या तत्र अभिवर्णितानि भवन्ति. श्रीपप्रियसङ्गीतोपासनसेयवे वो मनसा इति एकं कीर्तनं त्यागराजमहर्षेः वर्तते. नाम गीतं नाम सङ्गीतं नाम जनाकर्षण जनचित्ताकर्षकतया यत् सङ्गीतं वर्तते तत् मास्तु श्रीपप्रियसङ्गीतोपासनं करोतु इति. अत्र विचार्यमाणे वाक्यं वाक्यस्य विचारणे कृते श्रीपः परमेश्वरः हृदिस्थः पुरुषोत्तमः सः कदाचित् अवोचत् किल मद्भक्ताः यत्र गायन्ति तत्र तिष्ठामि नारद इति. अतः परमेश्वरप्रीत्यै यद्गानं प्रवर्तते तेन गानेन अवश्यम् अन्तरङ्गशुद्धिः भवति अस्माकम्. अत एव श्रीपप्रियसङ्गीतोपासनं सङ्गीतस्य केवलं शब्द सङ्गीतस्य प्रयोगे एव न मनसः अनुसन्धानं कुर्वन् श्रीपप्रियः यथा नन्दति तथा गानं करोतु इति तदर्थः. अतः सङ्गीतं नाम देवताप्रीत्यै एव भवेदिति अनेन विज्ञायते. तत्र देवता आत्मनः भिन्ना न भवति, आत्मैव देवता स्यात्. मन्त्रशास्त्रे तावत् मन्त्राणाम् उच्चारणेन देवतासाक्षात्कारः भवति. वेदान्तिनः वदन्ति श्रवणमरणनिध्यासादिभिः आत्मसाक्षात्कारः भवति. उभयोः भेदः कः? न कश्चिदपि भेदो वर्तते. नाम वृत्तिसम्पर्कात् आत्मनि रूपभेदः जायते. तद्रूपम् उपासनामार्गेण उत्कृष्टतया परिगण्यते. अतः यः यः यं यं देवम् आराधयति सः सः तं देवं साक्षात्कृत्य पश्यति. तदर्थस्तु आत्मानमेव देवतारूपेण साक्षात्करोति इत्यर्थः. एवम् आत्मनः प्रभेदो वर्तते सगुणनिर्गुणभेदे. सगुणभेदे एव देवतास्वरूपो भवति. इदानीं नादः यः नादः सर्वशब्दस्य मूलभूततया वयं वदेम सः नादः देवता इति त्यागराजैः प्रतिपादितं क्वचित्. नादसुधारसंविलनु नराकृतायरा इति वेदागमशास्त्रपुराणादुलकु आधारभूतमेन नादसुधारसम्भु नराकृतायरा. अतः यः नादः वेदशास्त्रपुराणानाम् आधारभूतः वर्तते सः नादः रामाकृतिः अभूत् इति रामं तत्र दृष्टवान् त्यागराजमहोदयः. अतः नादसाक्षात्कारार्थं यस्य गाने प्रवृत्तिः वर्तते तद्गानम् उत्तमम् इति कथयन्ति राज्ञः. अत्र नादस्य द्विविधो मार्गः उच्यते, आहतनादः अनाहतनादः इति. आहतनादः गानप्रयोगरूपः, शब्दश्रवणरूपः. रागमाध्यमेन रागताळनिबद्धतया यः शब्दः चित्तरञ्जनं करोति अस्माकं सः शब्दः आहतनादः इति स्वीक्रियते. अनाहतनादस्तु आहतनादस्य मूलभूततया यः नादः वर्तते तं नादं देवतात्वेन अनुसन्धाय तत् साक्षात्कारार्थं यः प्रयत्नः उपासनाविधाने प्रयत्नः वर्तते सः प्रयत्नः अनाहतनादरूपः इति कथयन्ति. सङ्गीतदर्पणे एवं प्रतिपादनमस्ति. अतः आहतनादम् अनाहतनादञ्च सम्यक् विज्ञाय अनाहतनादमेव आश्रित्य आहतनादे प्रवृत्तः स्यात् गायकः. इदं गानम् अस्माकम् अवश्यं प्रकृतिरञ्जनार्थम् आत्मरञ्जनार्थञ्च आत्मदर्शनार्थञ्च उपकरोति. तत् त्यागराजेन प्रतिपादितं क्वचित् जीवन्मुक्तिः कथयन्ति वेदान्तिनः. जीवन्मुक्तिः इति कथयन्ति. का जीवन्मुक्तिः इत्युक्ते जीवन्नेव यः ब्रह्म साक्षात्कारं प्राप्नोति सः जीवन्मुक्तः इति. जीवन्नेव अमृतत्वं प्राप्नोति इदानीं जीवन्मुक्ति साधनाय ज्ञानस्य आवश्यकता वर्तते. कीदृशं ज्ञानं भवेत्? विषयज्ञानं वा, प्रपञ्चे वर्तमानानां वस्तूनां ज्ञानं वा? यदि एतत् किमपि न, तत्त्वज्ञानं भवेत्. यत्र कुत्रचिदपि तत्त्वज्ञानं भवेत्. अत एव सर्वेष्वपि शास्त्रेषु मूलभूततया तत्त्वज्ञानमेव स्वीकुर्वन्ति. यथा वैयाकरणाः शब्दब्रह्म इति शब्दस्य मूलभूतशब्दतत्त्वं स्वीकुर्वन्ति, यथा वेदान्तिनः ब्रह्मैव मूलं तत्त्वम् इति स्वीकुर्वन्ति, तथा गायकाः अपि सङ्गीतशास्त्रे अपि नाद एव मूलतत्त्वम् इति स्वीकुर्यात्. नादतत्त्वं यः जानाति सः उत्तमः गायकः, सः जीवन्मुक्तो भवति. तदेव त्यागराजमहोदयः प्रतिपादयन्ति, मोक्षं कलदा भुविलो जीवन्मुक्तुलु कानि वारुणकु साक्षात्कार सद्भक्तिनिच्चे सङ्गीतज्ञानविहीनुलकु मोक्षं कलदा. स्वराणां परिज्ञानाभावात् यस्य कस्यापि मुक्तिः न स्यात्. जीवन्मुक्तिं विना मुक्तिः न सिध्यते. सङ्गीतशास्त्रस्य तत्त्वं तत्त्वदर्शनं विना जीवन्मुक्तिः न सिध्यति. अत एव बहवः तत्र जीवन्मुक्ताः सङ्गीतस्थितिं स्वराणां ज्ञानं प्राप्तवन्तः. यथा शङ्कराचार्याः क्वचित् रागाणां स्तोत्रे रागाणां नामानि प्रतिपादितवन्तः, एवमेव परमाचार्याः तत्र वीणावादने अनुरताः अभूवन् किल. राघवेन्द्रस्वामिनः तत्र सङ्गीतशास्त्रे बहु परिश्रमम् अकार्षुः इति चरित्रम् अस्माकं दर्शयति. एवं रूपेण यः सङ्गीतस्य परमार्थस्थितिं जानाति, सङ्गीते तावत् अनाहतनादम् आधारीकृत्य आहतनादप्रयोगं करोति, सः अवश्यं जीवन्मुक्तो भवति इति पूर्वजानाम् अभिप्रायः अस्माभिः ज्ञातव्यः. अत्र शङ्कराचार्यैः क्वचित् प्रतिपादितमस्ति यत् शब्दादिभिः पञ्चभिरेव पञ्च पञ्चत्वमापः स्वगुणेन बद्धाः कुरङ्गमातङ्गपतङ्गमेन भङ्गानवः पञ्चभिरञ्चितः किम् इति. अत्र शब्दादयः विषयाः अस्मान् मोहे पातयन्ति इति तदर्थः. यथा कुरङ्गः किरातेन नाम गानं श्रावयता किरातेन यथा हनीयते हरिणः, कुरङ्गः हनीयते, एवं रूपेण जीवः अपि शब्दैः चित्ताकर्षकशब्दैः हनीयते इति तत्र प्रतिपादनमस्ति. एवञ्चेत् सङ्गीतस्य किं प्रयोजनम् अस्माभिः साधनीयं भवति इति. अत एव वदामः, केवलम् उपरि श्रूयमाणः शब्दः अस्मान् मोहे पातयति. अत एव सः शब्दः श्रूयमाणः यः रागः, रागरूपेण वर्तमानः शब्दः यः वर्तते, सः मनसि उपासनामार्गेण सः रागः प्रयोक्तव्यः. तादृशः रागः अस्माकं मोहाय न भवति इति महर्षिभिः प्रतिपादितो विषयः तत्र क्वचित् स्वकपद्धतया अहं वदामि. अनाहतानुसरणे गानं मोहाय नो नरः, करुणास्थये देव्याः तच्चोपकृते सतः. रागेषु यथा कवितायां रसः वर्तते, रागेष्वपि रसः वर्तते. साहित्यस्य सङ्गीतस्य च नियमविषये भेदो नास्ति, स्वरूपविषये एव भेदः. प्रयोगाणां विषये नियमः यावान् क्रमेण वर्तते तावता क्रमेण सङ्गीतशास्त्रेपि वर्तते. अत्र प्रधानांशः रसः, रसब्रह्म इति वयं वदामः. आलङ्कारिकाः वदन्ति रसब्रह्मसाक्षात्कार एव काव्यस्य परमं प्रयोजनम् इति. एवं नादसाक्षात्कार एव सङ्गीतस्य प्रयोजनमपि गायकाः वदन्ति. अतः उभयत्र रसः समान एव. रसस्तु भिन्नभिन्नतया लवात्मको रसः इति तत्र अलङ्कारशास्त्रे प्रतिपादितमस्ति. सङ्गीतविषये अपि नवरसाः भवेयुः नाम तथापि मुख्यतया अस्माकं मोक्षसिद्धि प्रकृतिरञ्जनाय च करुणरस एव अस्माकम् उपयुज्यते. एतत् कथयन्ति महर्षयः, करुणारसपूरं संसरणमहोदधितीरमु अरिषड्वर्गविदूरमु वरगुरूपदेशोद्धारमु परमेश्वरगानम् इति. प्रधानरसः करुणरस एव अस्माभिः ज्ञायते. यत्र कुत्रचित् वयम् अन्धक नाम कूपे पतामः तर्हि ततः उद्धरणार्थं कञ्चन वयं प्रार्थयामः. तस्य करुणा यावत्पर्यन्तं जायते तावत्पर्यन्तं वयं प्रार्थयामः. एवमेव महति कूपे वयं वर्तामहे अधुना संसारकूपे, तस्मात् उद्धर्तुं कश्चन परमेश्वरः अस्मान् उद्धर्तुं पुरः आगच्छन्ति. तदर्थमेव त्यागराजादयः करुणरसं प्रधानतया स्वीकुर्वन्ति. मोक्षः नाम संसारात् उद्धरणमेव. संसारकूपात् उद्धरणं यः इच्छति सः अवश्यम् आत्मानं न्यूनतया कृत्वा परमेश्वरं सम्प्रार्थ्य संसारोद्धरणे प्रयत्नः कर्तव्यः. अतः एवं रूपेण संसारात् उद्धरणार्थं करुणरस एव भगवति निर्मीयते. त्यागराजस्वामिभिः अत एव सङ्गीतविषये सङ्गीतशास्त्रविषये सर्वे रसाः भवेयुर्नाम करुणरस एव प्रधानतया स्यात्, तदङ्गतया इतरे रसाः भवेयुः इति नाम प्रयोगरूपेणैव नियमः. नाम प्रतिपादनं यत्र कुत्रचिदपि स्पष्टतया नास्ति, किन्तु अस्पष्टतया वा कुत्रचित् अस्ति, तथापि प्रयोगरूपेण ते सन्दिशन्ति सामाजिकान् यत् करुणरसप्रधानतया सङ्गीतं यदि भवति तत् अस्माकं मोक्षदायी भवति. करुणरसप्रधानेन वयं गानं कुर्मः तदा परमेश्वरस्य अनुग्रहः अस्माकं लभ्यते इति सङ्गीतशास्त्रज्ञैः प्रतिपादनमस्ति. एवं रूपेण गानशास्त्रं सङ्गीतशास्त्रं सङ्गीतशास्त्रस्य फलम्. अत्र शास्त्रं शास्त्रम् इति वदन्ति सङ्गीतस्य, किं शास्त्रस्य अनुबन्धचतुष्टयं भवति खलु, तदनुबन्धचतुष्टयं कुत्रापि प्रतिपादितं वा इति. तदपि त्यागराजमहर्षिभिरेव प्रतिपादितमस्ति अनुबन्धचतुष्टयविषये अपि विचारः कृतः. तत्र प्रथमतया नादतनुमनिशं शङ्करम् इति भक्तिसिद्धेः अनन्तरं त्यागराजस्वामिभिः प्रथमतया कृतं गीतं वर्तते. तत्र तावत् नादतनुमनिशं शङ्करं नमामि मे मनसा शिरसा मोदकरनिगमोत्तमसामवेदसारं वारं वारं सद्योजातादि पञ्चवक्त्रज सरिगमपदनि सप्तस्वर विद्यालोलं विदणितकालं विमलहृदय त्यागराजपालम् इति. तत्र कथयन्ति त्यागराजस्वामिनः अनुबन्धचतुष्टयं शास्त्रस्य अवश्यं भवेत्, सङ्गीतशास्त्रस्यापि अनुबन्धचतुष्टयम् अत्र प्रतिपाद्यते इति. अनुबन्धचतुष्टये विषयः प्रयोजनं सम्बन्धः अधिकारी इति भवेत्. अत्र विषयः कः इत्युक्ते सामवेदसार एव विषयः. नाम सङ्गीतं सामवेदसारं सामवेदसार एव इति रूपेण स्वीकुर्वन्ति. अर्थात् सङ्गीतं स्वतन्त्रतया जनपदेषु न समुद्भूतं, किन्तु अनूचनतया सनातनविज्ञायम् इति प्रतिपादयितुं सामवेदसारम् इति. सामगानं प्रकृतगानं, तस्मात् विकृतं सङ्गीतम्. एवं रूपेण सामवेदसारं सारत्वेन यः यत् सङ्गीतं वर्तते तत् अत्र विषयः. अत्र प्रयोजनं किं सङ्गीते प्रवृत्तौ अस्माकं प्रयोजनं किमपि अस्ति वा इत्युक्ते, विदणितकालम् इति पदेन प्रयोजनं सूचितं. नाम विदणितकालम् इत्युक्ते नादतनुम् इति नादरूपेण सङ्गीतस्य मूलभूतः यः नादः तं प्रार्थयति. विदणितकालम् इति यः नादानुसन्धानेन गानं प्रयुनक्ति सः अवश्यं मृत्युं जयति मृत्युजित् भवति अतः यः मृत्युञ्जयः सः परमेश्वरेव अतः परमेश्वरे सायुज्यं गच्छति इति तदर्थः तत्प्रयोजनं स एव मोक्षः मृत्यु भेददृष्टिः मृत्युः अभेददृष्टिः अमृतम् एवं रूपेण अमृतत्वसिद्धिः यस्य भवति सः मृत्युञ्जयति यः मृत्युञ्जयति सः परशिवो भवति अत एव परशिवत्वसम्पादनार्थं मयि परशिवत्वम् अहं परपरशिव एव भवामि नादेवो देवमर्चयेत् अतः अहमेव अहमपि परशिवो भवामि चिदानन्दरूपशिवोऽहं इति सिद्ध्यर्थं नादस्य अनुसन्धानम् आवश्यकम् इति वदन्ति अतः सङ्गीतस्य इदं प्रयोजनम् इति स्वीकुर्वन्ति विषयः प्रयोजनम् अत्र सम्बन्धः कः इति स्वरः सम्बन्धः सङ्गीतशास्त्रे नादम् आधारीकृत्य आगतः स्वर एव सः स्वरः सप्तधा विभक्तः इति कृत्वा सप्तस्वर सरिगमपदनिसप्तस्वरविज्जालोलं सरिगमपदनिसप्तस्वरः एव अत्र सम्बन्धः अधिकारिकः इति विमलहृदयत्यागराजपालम् इति यः विमलहृदयः अर्थात् सदाचारेण सदाहारेण सद्व्यवहारेण सत्सङ्गेन च यः विमलान्तरङ्गः भवति सः सङ्गीतशास्त्रे प्रवेष्टुम् अर्हः भवति अर्हः सङ्गीतगाने प्रवेष्टुम् अर्हः गानसिद्धिं सम्पादयितुं तस्य अर्हता अस्ति इति एवं रूपेण विमलहृदयः यः त्यागराजः परमेश्वरः तं पालयति इति विमलहृदयत्यागराजपालम् एवं रूपेण अनुबन्धचतुष्टयस्यापि प्रतिपादनं क्वचिदस्ति अतः शास्त्रत्वेन सङ्गीतस्य शास्त्रत्वेनापि सिद्धिः एवं रूपेण सूचिता अस्ति अनन्तरं भक्तिसिद्ध्यै सङ्गीतमपि उपयुज्यते इति त्यागराजादीनां प्रयोगरूपेणैव क्वचित् दृश्यते अत्र मूर्तित्रयं प्रधानतया सङ्गीतशास्त्रे मूर्तित्रयं प्रधानतया अभिवर्ण्यते त्यागराजस्वामिनः मुत्तुस्वामिदीक्षिताः श्यामशास्त्रिणः इति एते केवलं न कारप्रयोक्तारः किन्तु नादं यः नादः वर्तते तं स्वे इष्टदेवतात्वेन सम्भाव्य तदनुसन्धानेन सर्वोऽपि प्रपञ्चः तत्रैव वर्तते नादाधीनं जगत् सर्वम् इति सम्भाव्य तत्र मनः लग्नं कृत्वा गानप्रयोगं कृतवन्तः अत एव स्वयमेव रागाः तेषां हृदयात् आविर्भूताः अत एव ते महर्षयः एते तावत् प्रकृतौ विशेषपरिणामं साधितवन्तः क्वचित् वर्षाभावः दृश्यते तत्र गत्वा मुत्तुस्वामिदीक्षिताः मृतवर्षग्राहप्रयोगेण वर्षं सम्पादितवन्तः एवं कुत्रचित् क्षेत्रे बालकः मृतः अभूत् तम् एकेन गानेन उज्जीवितवान् त्यागराजः एवं रूपेण श्यामशास्त्रिवर्यः यत्र सभायां वर्तते तत्र तावत् बहु क्लिष्टतया कञ्चित् ताळं प्रयोक्तुं कश्चन पण्डितः आगतः तम् अभियोक्तुं कोऽपि पण्डितः अत्र नास्ति इति कृत्वा राजा श्यामशास्त्रम् आदिष्टवान् श्यामशास्त्री तावत् देवीभक्तः इति कृत्वा तत्र देव्याः सकाशं गत्वा एकेन गानेन देव्याः प्रसादं प्राप्तवान् तेन देवी सन्तुष्टा सति एवं वक्ति भोः भवान् तत्र गच्छतु सः सिंहनन्दिनी इति ताणेन अभियोक्तुम् इच्छति भवान् शरभनन्दिनी ताणेन अभियुक्ष्वा इति आदिष्टवती भगवती एवं रूपेण सः शरभनन्दिनी ताणं स्वीकृत्य अन्यं पण्डितम् अभियुक्तवान् पराजितवान् एवं रूपेण गानं प्रकृतेः रञ्जनं ददाति परदेवतायाः अनुग्रहार्थमपि गानम् उपयुज्यते इति एतैः निरूपणं कृतम् एवं रूपेण सङ्गीतस्य प्रयोजनं प्रकृतिरञ्जनमित्यपि एवं रूपेण अनन्तरं रागा आविर्भाविताः पूर्णभावैः इति क्वचित् बुद्धस्वामिदीक्षितानां काव्ये प्रतिपादनमस्ति तत्र तावत् अस्मान् जीवन्मुक्तिसिद्धिं नयन्ति इति तत्र प्रयोगः कृतः रागाः जीवं जीवन्मुक्त्यै अस्माकम् उपयुज्यन्ते इति तत्र तत्र विषयः प्रतिपादितः. तत्र त्यागराजस्वामिनां कृतिरपि एवमेव दृश्यते, सङ्गीतज्ञानविहीनकु मोक्षं कलदा इति. तदर्थस्तु प्रयोजनं श्रवणरञ्जनं यथा भवति प्रकृतिरञ्जनमपि तथा भवति, एवमेव आत्मनः मुक्तिमपि ददाति इत्येवं रूपेण सङ्गीतस्य प्रयोजनत्रयम् अत्र प्रतिपादितं. सङ्गीतस्य शास्त्रसिद्धिः, शास्त्रत्वसिद्धिः, उत्तमप्रयोजनसिद्धिः एवं रूपेण महात्मनाम् अनुसरणम् एवं सङ्गीतस्य बहवो विषयाः अत्र अस्माकं विचारणे उपलभ्यन्ते. एतत् सर्वमपि अस्माभिः सम्यक् विचार्य गानविषये अस्माभिः प्रवर्तनीयम्. एवं प्रवृत्य नादात्मनः परमेश्वरस्य अनुग्रहः अस्माभिः सम्पादनीयः. गानं नाम न केवलं बहिः प्रयोग एव, अनुसन्धानात्मकप्रयोग एव तत्र कर्तव्यः इति विज्ञापयितुम् अहम् एकं स्वल्पतरं प्रयत्नम् अधुना करोमि. तत्र नादात्मिकायाः परदेवतायाः साक्षात्कारविषये गुरोः आवश्यकता अस्ति. सङ्गीतमपि गुरोः शिक्षणादेव प्राप्तव्यम्, सङ्गीततत्त्वज्ञानमपि गुरोः शिक्षणादेव प्राप्तव्यं, गुरोरनुग्रहेण प्राप्तव्यम्. सङ्गीतमूलभूतनादात्मिकपरदेवतायाः साक्षात्कारः परमेश्वरानुग्रहेण प्राप्तव्यः इति विज्ञापयितुं मदीयम् एकं गीतम् अहं श्रावयामि. शहररागनिबद्धम् एतत् गीतम्.
Sure.
ஸ்ரீபக்தி பூட்டே குரு ஏகீகிருத சுர தேஜோ ரூபாம் த்வமவிதீத்வ கோயாதிரதிம் 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 நாகாங்க்ஷேஹம் நாகாதிசுகம் நாகாங்க்ஷேஹம் நாகாதிசுகம் நாகாங்க்ஷேஹம் நாகாதிசுகம் வாசம் ஸ்ரீநிவாஸ சித்தே குரு நாகாங்க்ஷேஹம் நாகாதிசுகம் வாசம் ஸ்ரீநிவாஸ சித்தே குரு சூக்தி புட்டே குரு பக்தி வர்ஷ புருஷே துபரஜிதம் மே சேத சூக்தி புட்டே குரு ஆ